नमस्कारः सर्वेषां संस्कृतकक्षायां स्वागतम्। प्रथमतया अहम् एक श्लोक वदामि, सर्वे शृण्वन्तु।
Beverly Foreman.
Namah. Om. Vagartha divasam praktau. Vagartha pratipattaye. Jagatah pitarau vande. येनाक्षरसमानायम् अधिगम्य महेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। पुनः सर्वेषां संस्कृतकक्षायां स्वागतम्। मम नाम गीताञ्जलिः। अस्माकं वर्गस्य पुस्तकम् अस्ति अभ्यासपुस्तकम् इति। सर्वे इति जानन्ति वा अभ्यासपुस्तकं PDF मध्ये, अपि च फ्रम् अ बुक् बुक् स्टोर् आल्सो यू केन् बाय्। एव्रिबडि केन् एव्रिबडि अण्डर्स्टाण्ड्?
जि अटैचमेंट भी है मेरे में।
हाँ, PDF अटैचमेंट है। Also, I'll be doing some screen sharing. So far, I think everybody can understand some Hindi. Anuradha Bhagini, Namaskara, Swagatam.
Namaskara, Bhagini.
Swagatam, Bhagini. Anuradha Bhagini, where are you located?
Hama UK Desha Vasami Bhavati.
अपि च रघुपति आचार्य महोदय, नमस्कार महोदय, स्वागतं। अस्तु अस्तु, वयं किञ्चित् किञ्चित् अग्रे गच्छामः। अधुना अहम् इति मन्ये प्रथमतया वर्गस्य सम्बन्धे किञ्चित् सूचनार्थं वदामि। रिगार्डिङ्ग् दिस् क्लास् ऐ थाट् ऐ शुड् इन्फार्म् अ फ्यू थिङ्ग्स्। प्रथमतया पुस्तकमस्ति अभ्यासपुस्तकम्। There is a book called Abhyasa Pustakam and there is a PDF also that is available for this. Apicha prati saptaham vargat paschat tasya dinasya dhvani mudranam jalapute madhye sthapayami. Each class will be recorded and I will post the recording so that we can revisit the class anytime we wish to. Shanaihi shanaihi vayam agre gachamah. Slowly slowly we will move forward and learn. यदि कोऽपि प्रश्नः अस्ति अवश्यं मम ईमेल् मध्ये सम्पर्कं करोतु. Everybody has my email. Please feel free to contact me through email for any other questions, class related questions. A little bit about me. Mama nama Geetanjalih. Mama matra bhasha Hindi asti. Aduna aham लोरेन्स् नगरे केन्सस् प्रदेशे USA मध्ये वसामि. ऐ लिव् इन् लोरेन्स् केन्सस् नौ इन् द मिडल् आफ़् द US. ऐ एम् आल्सो लर्निङ्ग् संस्कृत स्टिल्, वेरि मच् अ लाङ्ग् वे टु गो. संस्कृत इस् सच् एन् अमेज़िङ्ग् एण्ड् सच् अ लार्ज् एण्ड् अ मैण्ड् ओपनिङ्ग् लेङ्ग्वेज्. I'm completely in love with this journey, and I am very honored to share whatever little I know. It is possible that some mistakes will be there, and I will hope Raghupati Acharya Mahodaya, please enlighten us all and help us all. You are very senior, and my pranams to you. Astu. So, where there is a screen sharing that we can do in this medium, that also I will use. How many of us in the class cannot read Devanagari? Can you let me know? Who cannot read Devanagari?
सर्वे जानन्ति.
एण्ड् नाम उच्यतां भगिनि? अनुराधा. न जानन्ति. यु के नाट् रीड्
भगिनि. सर्वे जानन्ति,
सर्वे जानन्ति
इति दृश्यते.
किन्तु भगिनि, ऐ थिङ्क् बेवर्ली न जानाति. बेवर्ली फोर्मन्, श्रूयते वा? डु यु हियर् मी बेवर्ली?
Oh, unmuted. Can you hear me?
Yes. So,
okay,
so you do not know the Devanagari script, am I correct?
Correct, I don't.
Okay, and I think everybody else, another Nutana, 998-704-2095, Namo Chetam? Okay, so I will establish the Devanagari first, because I think that is where we should all begin. So Abhyasa Pustakam has in it, in the very beginning, the first page, Prathama Puta Sankhya Ekam. So if you, everybody has the book?
Yes.
All right. Prathamataya Aham Vadami Mama Nama Geetanjalihi. Mama Nama गीताञ्जलिः. मम नाम गीताञ्जलिः. अहम् एकमेकं पृच्छामि. अपर्णा भगिनी, भवत्याः नाम किम्? अपर्णा भगिनी, श्रूयते वा? भवत्याः नाम किम्?
We can use a little bit of English also, so that to begin with, they may not be knowing many of them.
Thank you, Mahodaya. Aparna Bhagini, can you hear me? Aparna? not there. Astu, Beverly Bhagini?
Mama Nama Beverly?
Astu, Uttamam. Uttamam, Mama Nama Beverly. Astu, Chelna Bhagini? Bhavatyah Nama Kim?
Mama Nama Chelna.
Uttamam, Uttamam. Apicha Mahodaya, Nitin Mahodaya? Bhavatah Nama Kim?
Mama Nama Nitin.
Uttamam.
Nitin.
Uttamam. Apicha Anuradha Bhagini? Bhavatyah Nama Kim?
Mama Nama Anuradha.
Uttamam. Apicha Prema Bhagini? Bhavatyah Nama Kim? Prema Bhagini, do you hear me? Shweteva? Bhavatyah Nama Kim? Astu. Apicha. Aparna Bhagini. Shweteva, can you hear me now, Aparna Bhagini? Astu. Okay, we will have now. So you notice that Mama Nama means my name. And then your name comes. Mama Nama. And then when we ask a female, then we say Bhavatyah Nama Kim. So already we see that Sanskrit is a gendered language. Bhavatyah Nama Kim for a female. But if you are asking a masculine, then you will say Bhavatah Nama Kim. Bhavatah Nama Kim. So one by one, I request you to ask each other accordingly. So we will start with Anuradha Bhagini. Beverly Bhagini, we don't need a video, so you can close your video. Thank you. Anuradha Bhagini, please ask Nitin Mahodaya his name. How will you ask?
Bhavatah Nama Kim?
Uttamam. Nitin Mahodaya?
Mama Nama Nitin.
Now please ask Usha Bhagini.
Bhavatyah Nama Kim?
Mama Nama Ushaha. Usha.
Usha. Usha.
Usha.
Uttamam. Uttamam. Now please ask Prema. Prema Bhagini.
Should I ask?
Bhavatyah
Nama Kim?
Prema Bhagini. Maybe she cannot hear or something.
Bhagini, I do want to participate.
Okay. Astu, Mahodaya. Usha Bhagini, can you ask Raghupati Acharya Mahodaya?
Yeah.
His name.
Bhavatah Nama Kim?
Mama Nama Raghupati Acharya. Bhavatyah Nama Kim?
Mama Nama Usha. Usha.
धन्यवाद
धन्यवाद महोदय उषा भगिनी कैन यू आस्क चेलना भगिनी
भवत्याः नाम किं चेल
मम नाम चेलना
नाउ जस्ट लाइक रघुपति आचार्य महोदय कैन यू आस्क हर बैक हर नेम
मम नाम रघुपति भवत्याः नाम किम् मम नाम रघुपतिः भवत्याः नाम किम्
Who is supposed to answer this now?
So, is it? सो चेलना भगिनी केन् यू आस् नितिन् महोदय
भवतः नाम किम्
नाम किम् अस्तु
मम नाम नितिनः भवत्याः नाम किम्
एण्ड् हू आर् यू आस्किङ्ग् चेलना भगिनी
मम नाम चेलना
उत्तमम् उत्तमम् अपर्णा भगिनी अस्ति वा अयुधेर् अपर्णा भगिनी अनुराधा भगिनी अस्ति वा अयुधेर्
अस्मि भगिनि
अनुराधा भगिनी केन् यू आस्क् रघुपति आचार्य महोदय
भवतः नाम किम्
मम नाम रघुपति
महोदय केन् यू आस्क् बेवर्ली
भवत्याः नाम किम्
मम नाम बेवर्ली
Can you add him back his name?
Bhavata Nama Kim.
Mama Nama Raghupati.
Uttamam. Uttamam. So we see that for a masculine we say Bhavataha and for feminine we say Bhavatyaha. Bhavatyaha. So what does the word Bhavataha mean?
Male.
Your. You're referring to male, belonging to male. And bhavatyaha means you're belonging to female. Asti va? Is that okay? Any questions? Kopi prashna asti?
Namadhi.
अग्रे गच्छे अग्रे गच्छामः अग्रे अग्रे सराम पुटसङ्ख्या 2 पेज् नम्बर् 2 अभ्यासपुस्तकम् एषः बालकः एषः बालकः एषः मीन्स् दिस् पर्सन् और् दिस् नियर् मी क्लोस् बै समीपे सम्बडी इस् क्लोस् सम्थिङ्ग् इस् क्लोस् एण्ड् इट् इस् मास्क्युलिन् देन् यू विल् से एषः एषः बालकः बालकः इत्युक्ते बोय्
बोय्
एषः बालकः सः वृद्धः सः इत्युक्ते अगेन् मास्क्युलिन् ही बट् फर्दर् अवे फार् लिटल् बिट् फर्दर् अवे सो सम्बडि दट् इस् क्लोस् टु यू दट् इस् मास्क्युलिन् यू विल् से एषः सम्बडि लिटल् बिट् फार्दर् अवे यू विल् से सो दिस् दिस् पर्सन् देट् पर्सन् सम्थिङ्ग् लैक् देट् सः मीन्स् देट् पर्सन् वृद्धः वृद्धः इत्युक्ते
old
elderly person somebody with wisdom somebody who has been around vriddha so eshah balakah sah vriddhah beverly bhagini agre can you do the next one
you mean ganesh
am bhagini
ganesh eshah balakah
No. Eshah Ganeshah.
Hello. Eshah. Hello. Are you sharing screen?
Namaste, Prema Bhagini.
I want to know whether you are... I cannot see any video you're sharing of screen.
I am not screen sharing yet. We are only looking at the Abhyas Pustaka Bhagini.
Okay, fine. I thought you have already started sharing the... And I am not getting any sharing.
Can you hear? I was trying to call you earlier, but now you can hear very well.
Yes, now I can hear you.
Excellent, Bhagini. So we are on page number 2, Abhyasa Pustakam.
Okay. अस्तु
चिन्ता मास्तु भगिनि.
भगिनि अत्र शेर् कर्तुं शक्यते वा अभ्यासपुस्तकं तेन मध्ये?
आं महोदय, किन्तु
अस्तु अस्तु
सर्वं पार्श्वे
अस्ति,
मम चिन्तयामि अस्ति पुस्तकम् अस्ति. Everybody has the book, correct? Either the PDF or the real book? Yeah. Anybody not have the Abhyasa Pustakam in front of them? Okay. So, Beverly Bhagini, Eshaha Ganeshaha.
Eshaha Ganeshaha.
Ichukte, what does that mean?
The Ganesh is close.
It means he is Ganesh.
Oh, he is Ganesh.
And the he here means somebody close to you.
Okay. Do you mean close in distance or close related?
Like close in distance. Okay. I am hearing some noises, so I will mute everybody. And then whoever is speaking will please unmute themselves. Okay, so now one by one as we speak you will unmute yourself, and then when you are done speaking kripaya please punaha mute yourself. Okay, Beverly Bhagini, number 2, vadatu Bhagini, please say.
एषः गणेशः.
आम् अग्रे द नेक्स्ट् वन् द फर्दर् अवे
ओके सा गणेशः सः सः गणेशः
सः गोविन्दः
ओके सः गोविन्द
गोविन्दः
गोविन्दः
अस्तु
सः गोविन्दः.
आं भगिनि, उत्तमम् उत्तमम्. अपि च नेक्स्ट् चेल्ना भगिनी, बेवर्ली भगिनी म्यूट्, धन्यवादः. चेल्ना भगिनी अन्म्यूट् करोतु. नम्बर् 3, तृतीया.
एषः आक्राशः. एषः
आक्राशः. आरक्षकः.
आरक्षकः.
एषः आरक्षकः.
एषः आरक्षकः.
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 उत्तमं भगिनी, उत्तमम्. इत्युक्ते what does it mean?
He is an officer.
This person is an officer. Maybe a policeman or something. This person is a
officer.
Agre, next, further away.
Saha Shrenikaha. Shrenikaha.
Uttamam Bhagini. Saha Sainikaha. Sainikaha ichukte?
Shoulder. I mean, soldier.
Soldier. Soldier. Astu. Uttamam. Uttamam Bhagini. Dhanyavada Bhagini. Nitin Mahodaya. 1.2 जी
एक्सरसाइज. हाँ बोलिए. एषा सीता. सा संध्या.
सा संध्या. एषा सीता इत्युक्ते
ये शी सीता.
हाँ ये सीता है.
ये सीता
मीन्स
वो संध्या. वो संध्या.
ये सीता वो संध्या. सो दैट इज वाई आई से इफ यू हैव एन इंडियन मदर टंग देन ऑफन यू विल फाइंड दैट इट इज वेरी यूजफुल टू इन लर्निंग संस्कृत. सो फॉर एग्जाम्पल ये एंड वो इन हिंदी और इन अदर लैंग्वेजेस इज वेरी क्लियर. एषः सः एषा सा. बट इन इंग्लिश दिस कॉन्सेप्ट ऑफ डिस्टेंस डजंट कम इन दिस वन वर्ड. ही. Then you have to say this person. then the he doesn't come. Then the he, she doesn't come. So you have to say this man or this masculine so and so. So please always use, I always suggest to use your own mother tongue if possible to help you learn. Next one, Nitin Mahodaya.
Esha Balika Sa Vruddha.
Sa Vruddha. So, Sita, Sandhya, these are names, feminine names, A ending names, and they just remain like that. Balika ityukte mahodaya?
Balika, sanya, sangya.
Balika ityukte, balika means?
Balika, ladki.
Ladki, balika, ladki, balika. Just a girl.
Yes.
Girl. Balika, girl. Vriddha ityukte?
मतलब क्योंकि मेरे लिए वृद्धा मतलब वृद्धा ही है इसलिए मैं सोच रहा हूँ कि और पर्यायवाची
elderly elderly
elderly
elderly lady वृद्धा वृद्धा elderly man वृद्धा elderly lady उत्तम महोदय धन्यवाद उषा भगिनी अग्रे next Usha Bhagini, Astiva. Usha, are you there, Usha Bhagini? Astu. Prema Bhagini. You are there. Astu. Usha Bhagini. Next one, number 3. Usha Bhagini. Na Shrete, I don't hear you. You are muted still. You unmuted, now you muted again.
Can you hear me?
Okay.
Esha Nalini.
Uttama.
Savitri.
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 So I will request that when you see a vowel like A, E, whatever you see, to be careful and be mindful which one it is. Is it short? Is it long?
Yeah.
And then...
Savitri.
Savitri.
Esha Nalini.
Nalini.
Savitri.
Uttamam Bhagini. Sundaram. Yeah. Asu. Agre. Aparna Bhagini. Asya. Aparna Bhagini. Usha Bhagini, can you please mute? Dhanyavada. Aparna Bhagini, are you there? Anuradha Bhagini.
Ask me, Bhagini.
Page 3, 1.2, E.
A. एतत् छत्रम्
प्रथमा पुस्तकम्
एतत् पुस्तकम् तत् गृहम्
पुस्तकम् इत्युक्ते भगिनी
बुक्
एतत् पुस्तकम् किमर्थम् एतत् भगिनी वै वी सेयिङ्ग् एतत्
दिस् इस् बुक् दट् इस् हौस्
दट् इस् हौस् And book and house are neither male, masculine gender nor feminine gender. So this is called the neuter gender or the napumsakalinga. So masculine gender in Sanskrit is pumlingaha. Feminine is strilingaha and neuter gender is napumsakalingaha. napumsakalingah. When something is in the neuter napumsakalinga gender, some vastu, some object, something, then we will use etat if it is near you and tat if it is further away. So etat pustakam, tat graham. Uttamam bhagini, uttamam. Apicha Deepshikha bhagini swagatam namaskarah. Shruyateva, do you hear me, Deepshikha bhagini? Astu. 9987042095. Whose number is this? Can you hear me? Would you like to participate?
Can you hear me now?
Deepshikha bhagini, namaskara, swagatam.
Namaskara, swagatam.
So, abhyasa pustakam, please open abhyasa pustakam. We are on page 3. Page 3, so read the first line and then the second line, kripaya. Vadatu.
Pustakam, etat pustakam, tat graham.
Etat pustakam ichukte, what does it mean? Iska matlab kya hai? Etat pustakam mane?
Etat pustakam means yaha pustakam.
Yaha pustak hai.
Yaha pustak hai.
That hai that we have in Hindi is not there in Sanskrit. It is not in this sentence. It is implied. It would be there as asti. But when many times it is not written, it is simply implied. So, hum log ko isko sochna, ye pustak hai. And then, tat graham, ichukte bhagini?
Vah pustak hai.
Tat graham, bhagini?
Oh, vah ghar hai.
Vah ghar hai.
Ghar hai, haan. Vah ghar hai.
Lingaha kaha, what is the linga of these objects?
This is neuter gender. Napunsakling.
Uttamam.
Neuter gender, neither striling, neither pulling.
Uttamam. Napumsakalingaha.
Napunsakalingaha.
Napumsakalingaha. Agre Deepshikha bhagini. Next one.
Next is etat chatram.
Etat.
Tat etat chatram.
Etat chatram. Ichukte?
Yaha chata hai.
Uttamam. Agre?
Agre. Tat phalam.
Tat nasti bhagini. Tat na. Tat.
Acha tat. Tat phalam.
Tat phalam.
Vah phal hai.
Uttamam. That is fruit. This is umbrella. Uttamam. Dhanyavada bhagini.
Okay. Thank you.
Astu. Beverly bhagini. Astiva. Are you there, Beverly bhagini? Raghupati,
yes,
Acharya Mahodaya.
Okay. Yes.
After Beverly, maybe Raghupati Acharya Mahodaya. So, Beverly Bhagini, our next one, number 3.
Okay. Etat puspam, tat krishna palakam.
Etat pushpam.
Etat pushpam.
Pushpam. Ichukte bhagini?
And tat krishna palakam.
Uttamam bhagini. Etat pushpam means, what does it mean? Ichukte?
This flower.
Yeah, this is a flower.
This
basically
is a flower.
In English, the construction, grammar construction will make it a little bit different. So, this is a flower. And then,
that is a chalkboard.
Uttamam bhagini. Krishna palakam. Chalkboard, blackboard.
Blackboard. Krishna palakam.
Uttamam bhagini. Uttamam. उत्तमं धन्यवादः भगिनी अग्रे रघुपति आचार्य महोदय
एतत् उपनेत्रं तत् दूरदर्शनम्
उत्तमं भगिनी महोदय एतत् उपनेत्रम् इत्युक्ते
उपनेत्र स्पेक्टकल्
स्पेक्टिकल्स् उपनेत्रम् अपि च दूरदर्शनम् इत्युक्ते
टिवि दूरदर्शनं
दूरदर्शनम् उत्तमम् उत्तमम् सर्वे सर्वे जनाः अवगच्छन्ति इति अहं मन्ये ऐ होप् एव्रिबडी हेज़् अण्डर्स्टुड् सो फार् एनी क्वश्चन् कोऽपि प्रश्नः and some people have not participated but I see them and I don't know if they can hear or not hear me but astu okay prema bhagini Siva are you there prema bhagini koshtake means in the box in the box vadatu bhagini read say pathatu vadatu please read prema bhagini I cannot hear you प्रेमा भगिनी उषा भगिनी उषा भगिनी केन् यू रीड् वट् इस् इन् द बाक्स्
केन् यू हियर् मी नौ
उषा भगिनी
केन् यू हियर् मी
यस् यस्
ओके
उत्तमं भगिनि
एषः सः एषा सा एतत् तत् कः का किं
कः का किम् इत्युक्ते भगिनि
वाट् इस् दट्
वाट् इस् इट् फार् मास्क्युलिन् का वाट् इस् इट् फार् फेमिनिन् किं वाट् इस् इट् फार् नपुंसकलिङ्ग्
कः कः इस् पुल्लिङ्ग् का इस् स्त्रीलिङ्ग् किम् इस् नपुंसकलिङ्ग्
नपुंसकलिङ्ग् उत्तमं भगिनि सो लेट् अस् गो बेक् इन् टु पेज् नम्बर् टु एण्ड् डू इट् आल् ओवर् अगेन् एण्ड् वी विल् आस्क् ईच् अदर् सो उषा भगिनी आस् नितिन् महोदय नम्बर् वन् वन् पायिण्ट् टु अ नम्बर् वन् यु प्लीस् आस्क्
वन् पायिण्ट् टु वन् एषः नै एषः नितिन्
एषः कः
ओ अच्छा ओके एषः कः
नितिन् महोदय
एषः बालकः
उत्तमम् उत्तमं सुन्दरं नितिन् महोदय नौ यु आस्क् भगिनी द नेक्स्ट् वन्
सः कः सः का
सः वृद्धः
सः का इस् फेमिनिन् न महोदय
अच्छा तो मतलब
पूछते वक्त आप बोलेंगे सः सः कः
सः क मतलब जिसके बारे में पूछ रहे उसके वो जेंडर लगेगा
हाँ जैसे हिंदी में बोलेंगे ये कौन
ओके ठीक है
ना हम जैसे
ये ना ट्री है ना एप्पल
वनी अस्ति ओ 9987042095 I have muted. Okay. Mahodaya.
Saha kaha?
Saha kaha. Bhagini? Usha Bhagini?
हा सः कः सः वन् मिनिट् व्हाट डू आई से सः बालकः नै सः वृद्धः
सः वृद्धः
वृद्धः
ये कौन ये बालक वो कौन वो
वृद्धः
वृद्धः अस्तु उत्तमं भगिनी धन्यवादः चेल्ना भगिनी अग्रे उषा भगिनी म्यूट् करोतु
ओके
चेल्ना भगिनी अस्ति वा आर् यु देर् चेल्ना भगिनी केन् यु आस् रघुपति आचार्य महोदय द नेक्स्ट् वन्
एषः क्या
एषः कः
कः
And who are you asking about? Do you know who you are asking about?
Ganeshah.
Uttamam bhagini. Punaha badatu.
Eshah kaha Ganeshah.
Eshah kaha. Ye kaun.
Okay. Eshah.
You will not say ye kaun Ganesh. That means you are asking of all the Ganeshas, which Ganesha is this? But okay. Here, that is not the option. There is one Ganesha and we are simply asking, ye kaun hai? Hai na? So we will say,
eshah kaha.
Eshah Ganesha.
Mahodaya, havan prachatu.
Saha kaha.
सः गोविन्दः
उत्तमम् उत्तमं सः गोविन्दः वे गोविन्द है वः गोविन्द है वः कौन् सः कः वः गोविन्दः ही इस् गणेश हु इस् दिस् नियर् बै दिस् इस्
गणेशः
दिस् इस् गणेश हु इस् देट् फर्दर् अवे ही इस्
गोविन्दः
गोविन्द उत्तमं भगिनि धन्यवादः then Aradhan, Anuradha Bhagini and Deepshika Bhagini. Please Anuradha Bhagini ask Deepshika Bhagini. Anuradha Bhagini, are you using a microphone or are you on the computer speaker volume?
Speaker volume.
That is why the dhvani, there's a fair bit of noise. If you have earbuds and a mic, that would be preferable, Bhagini. It cuts down a lot of noise. Vadatu, Bhagini. Please say.
Bhagini, noise is not coming from mine. I've muted it, unmuted. There was no change in the noise.
Mahodaya, can you help? Okay, I'll mute Deepshika Bhagini, are you using earphones with a microphone?
Earphones with the microphone?
Like earbuds what with a microphone or you are using the speaker phone?
I have got earphones. What is microphone? Is there in that?
Headset.
I'm using a headset, that's right.
Okay, now much better now. I think sound has reduced. So Anuradha Bhagini, Deepshika Bhagini, Prachatu. Please ask Deepshika Bhagini next. 1.2
1.2
which question is there? Sorry, Bhagini.
Chinta mastu, Bhagini. Yeah. Page number 2, madhye, in the middle, 1.2, ah, is there.
1.2,
You see Sita, you see Sita. Pashyati va, you see Sita. Middle of, Deepshika Bhagini. Ask Anuradha Bhagini.
Okay. Esha ka?
Esha. Esha Radha?
Esha.
No. Esha Sita.
Sita, sorry. Which page are we on?
Number 2, Bhagini. Abhyasa Pustakam, number 2. पुनः पृच्छतु दीक्षिः भगिनि, पुनः पृच्छतु, प्लीज़् आस्क् अगेन्.
एषा का? एषा का?
एषा सीता. सा का?
सा संध्या.
उत्तमम् उत्तमम्. एषा सीता, एषा का, सा का, सा संध्या. उत्तमं भगिनि, धन्यवादः. प्रेमा भगिनी अस्ति वा? उषा भगिनी. आई थिंक एवरीबडी हैज आस्क्ड सो फार इन दिस राउंड. हैज एवरीबडी आस्क्ड?
या, आई हैव नॉट. बेवरली.
Beverly, I think you did the beginning one.
Remember? Oh, the beginning. Sorry. Yes, I did. I'm sorry. I did. Yes. Okay.
Usha Bhagini, have you asked?
Yes, I did.
And Prema Bhagini, Astiva? One other number is there also. I cannot tell who is there. Okay, next. So let's start again. Beverly, Apicha, Raghupati Acharya Mahodaya. Beverly Bhagini, Prachari.
With Balika, start with that one?
Bhagini.
Where do I start?
Balika.
Okay. Esha Balika Sha Vridaha.
So now how will you make it into a question?
Oh, jeez.
Esha.
Put this in front of it.
Esha Ka.
Esha ka balika?
Esha balika.
Esha balika.
Esha ka ichukte? What does it mean? Esha ka?
This is balika.
Esha ka? What does that mean?
Esha ka? This is? This is.
Who is this?
Oh, who is this?
Who is this? So, kaha, ka, and kim are question marking words. Kinche dhvaniya.
Okay.
Is it chelna bhagini?
No, Usha. Usha bhagini.
Usha bhagini. Usha bhagini, kripya mute karo tu bhagini.
Sorry.
I'll mute you. Dhanyavada Mahalaya.
Bhagini, atra right hand side madhye all active speakers asti. Tatra active speakers yata bhavati nodayati chet. Tatra bhavati jnatam shakyate. Ka unmute asti, mute asti.
Kintu adhuna sarve mute karome.
Adhuna sarve asti. Mute madhye asti.
Mute madhye asti. Dhanyavada Mahalaya. Esha ka means this feminine, this lady, this woman near me, ka, who is she? So kaha, ka and kim are question words. So who is this, who is that, who is she, who is he, like that you will ask. So esha ka means who is she? Avagachanti va sarve. Beverly Bhagini,
Okay.
You understood?
So, Esha Ka is, who is she?
Yes. Near me. Near the speaker. Who is she?
Who is she?
So, now can you ask the next one to Raghupati Acharya Mahodaya?
Okay. Shaka Sandhya Vridha.
So when you
Sa Vridha.
Sa Vridha. So when you ask,
Sa Vridha.
When you ask, then you don't have to say the answer. You simply say, who is she? You don't say, who is she elderly, right?
Okay.
So you simply will say, Saka.
Saka.
Sa Vridha.
Sa Vridha.
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 So Mahodaya responded and replied to your question. You said, who is she? And Mahodaya said, she is the elderly. She is elderly. Elderly lady.
Okay.
You understood that one? Okay, try the next one, Bhagini. Beverly Bhagini.
Beverly, or I should mute now?
No, Beverly Bhagini, try the next one.
Okay. Esha Ka Nalini.
Esha Nalini.
Mahodaya, Sahayam Karotu Mahodaya.
Yeah, yeah.
Nalini.
Esha Ka Iti. Prashnam, this is a question actually. Esha Ka.
You're asking me.
Esha Ka.
Esha Ka. Then I should say, this is Nalini?
Yes.
Oh, Esha Nalini.
Esha Nalini.
Esha Nalini.
Dirgha asti, yatra male isti Esha, female Esha, iti dirgha asti, iti bhavati. Nalini, iti dirgha asti, Nalini.
Long, dirgha.
Savitri.
Nalini.
Normally, in female, ikara dhirga, e nalini, gauri, iti atava sita, rama, iti akara to ikara dhirga bhavati.
Esha ka, who is she near me? This woman near me, who is she? Esha ka. Esha Nalini. Sa ka. Sa. Savitri. Vadatu Bhagini.
Sa ka Savriti. Sa ka Savriti.
Okay. So, sa ka itself is the full question. You are done. No more. Saka means who is she? I will not ask, I will not say who is she if I already know the name of the person I'm asking. So Savitri is the name of this lady. Just like Nalini is the name of this lady.
Right.
So when you ask, you will say Saka.
Savriti.
That is the answer. But
that's
when you
answer.
Ask, so can you ask me? Can you ask, actually, can you ask Raghupati Acharya Mahodaya, Nalini, about Nalini?
Saka is, who is she?
Correct.
Sa Savitri.
And can you ask about Nalini? Can you ask Raghupati Acharya Mahodaya about Nalini?
Okay. Esha Nalini.
No, you are asking. How will you ask?
Okay, ka esha nalini.
Okay, so when you are asking, then you will not take the name, right? Nalini? You are asking about Nalini, like you want to know who this person is. So in your question, you will not say, who are you, Nalini? You will say, who are you?
Esha ka. Esha ka.
Uttamam Bhagini. Uttamam. Esha ka. Mahodaya?
Esha Nalini.
Esha Nalini. Okay, yes.
Uttamam. Chelna Bhagini, Nitin Mahodaya Agre. Prachatu. Chelna Bhagini, Prachatu. Nitin Mahodaya Uttaram Bhagatu.
Etat Kim.
Etat Pustakam.
Kim.
महोदय पृच्छतु
तत् किं
तत् गृहं
तत् गृहं
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 तत् गृहं
तत् गृहम् उत्तमम् उषा भगिनी एण्ड् अपर्णा भगिनी अपर्णा भगिनी अस्ति वा अपर्णा भगिनी एकनिमेष भगिनी अपर्णा भगिनी अस्ति वा अनुराधा भगिनी उषा भगिनी अस्ति अनुराधा भगिनी
एतत् किम्
एतत् छत्रं तत् किं
तत् फलम्
उत्तमम् उत्तमं सुन्दरम् अग्रे दीपशिखा भगिनी अपि च भगिनी अपि च प्रेमा भगिनी प्रेमा भगिनी अस्ति वा
यस् आई एम
हियर प्रेमा भगिनी अपि अस्ति वा प्रेमा भगिनी आर यू देयर प्रेमा भगिनी
शायद नहीं है क्योंकि उनके इधर डॉट नहीं दिख रहा है
ओके दीपशिका भगिनी कृपया रघुपति आचार्य महोदय पृच्छतु
एतत् किम्
एतत् पुष्पं तत् किम्
तत् कृष्णफलकम्
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 उत्तमं भगिनी अग्रे
एतत् एतत् किम्
एतत् उपनेत्रम् तत् किम्
तत् दूरदर्शनम्
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 उत्तमं भगिनि उत्तमं धन्यवादः धन्यवादः अधुना
भगिनि
अस्तु
माय गन्तव्यं
धन्यवादः महोदय नमस्कारः बहु
धन्यवादः धन्यवादः
ओके सो वि विल् नौ क्लोस् दिस् सेशन् इट् इस् 8 o'clock इदानीं विरमामः इदानीम् अधुना विरमामः वि विल् नौ टेक् अ ब्रेक् विच् मीन्स् वि विल् क्लोस् द क्लास् थेङ्क् यू एव्रिबडि बहु बहु धन्यवादः फोर् कमिङ्ग् टु क्लास् ऐ होप् यु विल् स्टे इन्स्पायर्ड् टु डू दिस् एण्ड् सो एव्रि टैम् बिफोर् वि स्टार्ट् क्लास् वि विल् स्टार्ट् वित् द 3 चान्स् एण्ड् दे विल् बि देर् इन् युर् ईमेल् नेक्स्ट् टैम् so that one by one and then as we start one by one each person will get a chance to say the opening chant and then we will close with a closing chant so today I will close with the closing chant but then in the future one by one of us can close with it I will send a email for the homework which is very simple simply to revise what we have done that's all and listen to the recording and speak with it so just becoming familiar with the language okay so I will now close om oh. Purnamada Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnameva Vashishyate Om Shanti 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 धन्यवादः पुनः मिलामः नमस्कारः
धन्यवादः
थैंक यू
धन्यवाद
धन्यवाद Thank you.